येना अक्षर समान नाइन अधिगम्य महेश्वरात् कृत्रिम व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वर ऋतिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् मुनित्रयम् नमस्कृत्य तदुक्तेः परिभाग्य च वैयाकरण सिद्धान्तकौमुदीयं विरच्यते। पंचमी भक्ति प्रकरण कारक पंचमी समाप्त। कैस्कै सूत्र अपादान समया विधीयत इति अवगतम्। तत्प्रयुक्ता च अपादाने पंचमी इत्यनेन पंचमी विभक्तिश्च भवति इति ज्ञातम्। इतः परम् उपपद पंचमी यत्र अन्यैः पदार्थैः योगे पंचमी विभक्तिः विधीयते सा विभक्तिः उपपद पंचमी इत्युच्यते। उपपद पंचमी विधाय केषु शास्त्रेषु आदौ वार्तिकं स्वीकरोति लिखितः। वस्तुतः किमस्ति इत्युक्ते अस्माभिः कथम् आगतम् आदौ ध्रुवोपाये अपादानम् इत्यारब्धम् ततः अपादाने पञ्चमी इत्युक्त्वा अन्यानि अपादानसंज्ञाविधायकानि सूत्राणि अधीतानि। सर्वं समाप्य इदानीं पुनः अपादाने पञ्चमी इति सूत्रे कानिचन वार्तिकानि सन्ति येषु पञ्चमी विभक्तिः विधीयते। अपादानकारकस्य पञ्चमी विभक्तिः भवति तथैव अन्यत्र क्वचित् पञ्चमी विभक्तिः भवति इत्युक्त्वा वार्तिककारेण कानिचन वार्तिकानि उच्यन्ते। तानि वार्तिकानि आदौ स्वीकृत्य ततः अन्यानि पञ्चमी विभक्तिविधायकानि सूत्राणि निर्दिशन्ति दीक्षिताः। अतः अपादाने पञ्चमी इति सूत्रस्थम् इदं वार्तिकम् ल्यब्लोपे कर्मण्यधिकरणे च इति। ल्यब्लोपे कर्मणि अधिकरणे च पञ्चमी विभक्तिः भवति। कर्मकारकस्य अधिकरणकारकस्य च पञ्चमी विभक्तिः भवति इत्येव अर्थः। वस्तुतः उपपदपञ्चमी इति यद्यपि उच्यते तथापि अत्र कर्मकारकस्य अधिकरणकारकस्य च पञ्चमी विभक्तिः विधीयते। कदा इति प्रश्ने ल्यब्लोपे ल्यवन्तस्य लोपे लोपः नाम कः इति चेत् संज्ञासूत्रमस्ति अदर्शनं लोपः इति। प्रसक्तस्य अदर्शनं लोपसंज्ञं स्यात् इति सूत्रार्थः। अदर्शनं लोपः नाम अदर्शनं इत्येव स्वीक्रियते। लोप इस् नाट् डिलीशन्। सामान्यतः किमुच्यते लोपः नाम समथिङ्ग् इस् डिलीटेड् इति उच्यते, किन्तु सामान्यतः लोपः लोपपदस्य अर्थः भवति अदर्शनं, दट् इस् नाट् सीन्। अत एव ल्यबन्तस्य लोपे नाम अदर्शने अथवा अप्रयोगे सति। सपोज् टु हव् बीन् अ ल्यबन्त when it is not used. This is similar to what we saw in Chaturthi Vibhakti. Tumunnam tasya aprayoge sati. Tumattha bhavajana yatah prak karmani sthaninah. Namaskurmo nrusimhaya. Nrusimham anukula itum iti उपपदे तुमुन्नन्तस्य अप्रयोगे सति तदर्थस्य अवगतौ चतुर्थी विभक्तिः भवति इति अधीतम्। तथैव अत्र ल्यबन्तस्य अप्रयोगे सति गम्यमान तदर्थं प्रति। ल्यबन्तस्य साक्षात् प्रयोगः नास्ति, किन्तु तस्य अर्थः ल्यबन्तस्य अर्थः गम्यते। तदर्थं प्रति यत् कर्म भवति, यच्च अधिकरणं भवति, तत्र पञ्चमी विभक्तिः भवति इत्यर्थः। उदाहरणं पश्यामः। प्रासादात् प्रेक्ष्यते आसाद आसनात् प्रेक्ष्यते इत्यस्ति। प्रासादात् प्रेक्ष्यते हि व्यूस् समथिङ्ग् फ्रम् द टवर्। आसनात् प्रेक्ष्यते हि व्यूस् समथिङ्ग् फ्रम् हिस् सीट् इति अर्थः। प्रासादात् आसनात् इति कथं पञ्चमी भक्तिः इति प्रश्नः। कोऽर्थः प्रासादम् आरुह्य प्रेक्ष्यते। हि क्लैम्स् अप् द टार् एण्ड् सीज़्ड् फ्रम् देयर् इति अर्थः प्रासादात् प्रेक्ष्यते इत्यस्य। आसनात् प्रेक्ष्यते इत्यस्य कोऽर्थः आसने उपविश्य प्रेक्ष्यते। हि सिट्स् इन् द सीट् एण्ड् लुक्स् एट् समथिङ्ग् इत्यर्थः। अत्र ल्यबन्तस्य प्रयोगः अस्ति। प्रासादम् आरुह्य इति ल्यबन्तम्। of everybody knows what is Yavantam. It's a Krit Pratyaya. There are Kvantas and Yavantas. Kva Pratyaya Asti Pradandeshu. When there are two actions being performed by the same person, the earlier action in a sequence, I mean there are two actions being performed in a sequence, the earlier action will get Kva. Shalam Gatva Pathati. He goes to school and reads. Bhojanam Kva Nidrati. Tasyaiva Kva Pratyayasya Sthane Lyap Ityadesho Bhavati Samase Sati. That is when it is preceded by an Upasarga. Samasa means here in case since it is Dhatu. Dhatohu Upasargena Saha Gati Samasaha Bhavati. Samase Sati Arthatu Sopasarge Dhatu Tasyaiva Kva Ityasya Lyap Ityadesho Bhavati Sadeva Lyabantam. So that is the Lyabantam. Aruhya. Rukh is the dhatu, A is the upasarga. So because of this, the kva has been replaced by lyap and you have aruhya. Evam upaveshya. Yabantam asti, yabantasya aprayoge sati. Prasada prekshate. Ityatra yabantasya prayogaha nasti. Kintu sasya artha gamyate. You are understanding that the meaning is conveyed, but the sakshat prayoga of yabanta is not there. So, prasadam aruhya prekshate ityatra. Prasadam arukhya, rukhadat pratham prati, karma bhavati prasadaha. Prasada is the karma karaka for ruh. He claims, what does he claim? He claims the prasada. So prasada is the karma karaka. So for that karma karaka, when the levanta prayoga is there, it is karma karaka and the karma karaka will get dhiti bhakti. But when the levanta is not used, the same karma karaka will get panchani bhakti. Prasadat prekshate. Evam asane upavishya prekshate. Upavishya iti lyavantam. Lyavante adhikaranam bhavati asanam. Asana is the adhikarana. It is the seat, it is the location of his sitting. So, adhikarana karakasya, lyavantasya aprayoge sati. When upavishya is not used, the adhikarana will get panchami vibhakti. So, it becomes asanat prekshate. Lebhyope karman nidhikarane cha. Shashurat dhikhreti. She is shy. Sri lajayam. Is to be shy. Shy of her. I mean, it may not be she or he. It is not mentioned. Father-in-law. Shashuraha. No, father-in-law. Tahar taha shashuram dhikshya dhikhreti. Looking at him, she becomes shy. Iti arthe punaha. Vikshya iti levantamasti. Levantasi aprayogesati tasya karmanaha. Shashura is the karma for vikshana. So karmanaha atra panchami bhakti shashurat dhikredi. These are the examples of Reblope karman nekhikarane cha. Gamyamana api kriya karakava bhakti naam yaniktam. Purva api drishtam. Alam shramena. Satam pratiya bhakti hi. Shramena sadhyam nasti. Ityukta. Sadhana kriyayam prati shramaha karanam. Gamyamana api kriya karakava bhakto prayojika iti krutva. Kritiya bhakti hi bhavati. Sadeva prapi uchyate. Gamyamana kriya. So even when the kriya is not directly mentioned in the sentence, when its meaning is implied, tatprayuktam karakatvam bhavati. Because any karaka is always in association with a kriya. Kriyam vina karakam na bhavati. If there is no action, there is no karaka. Because karaka by definition means kriyanvayi, that which is associated with a kriya. What happens when there is no kriya which is directly mentioned in the sentence? Even if it is not mentioned, it is implied. Because by definition, a sentence has to have a thing. Eka thing vakyam. So without a kriya, there cannot be a vakya. Karakanvita kriya vakyam. Kriya is actually the vakya. So even if it is not directly mentioned, there will be some action which is being implied. So tat tam kriyam prati karakatvam bhavati tat prayuktaha vibhaktayah api bhavati. Tasmatvam nadyaha. So this is, these are things which happen in a usual conversation when you're using it. Tasmatvam. You don't use full sentences. You don't use the technically correct form. You say, tasmatvam. where from? Nadyaha. From the river. So there is two persons meet on the road. So one person asks, where are you coming from? And the other person says, from the river. So there is no kasmat svam mityatra. Kasmat agataha iti agamana kriya vivakshita. Kintu na uchyate. Vakyanasti. Even though that was what he intended, it is not mentioned in the sentence, but it is implied. Agatosi iti gamyamana kriya peksham apadanatvam. Kasmad agataha. From where? Iti kasmad ityatra panchami katham apadanatvat panchami. Apadanatvam katham. Agatosi iti gamyamana kriya peksham apadanatvam. Nadyaha agataha. Tatrati tathaiva. I have come from the river. Nadyaha iti panchami vibhakti api agataha iti agamana kriya kriya peksham eva apadanatvam. कश्चन प्रश्नः आसनात् प्रेक्ष्यते आसनतः पश्यति इति सरलार्थे एव भवति कथं भवति हौ या इट् इस् नेचुरल् सत्यम् इन्स्टिङ्क्टिव्लि इट् इस् करेक्ट् आसनात् प्रेक्ष्यते इति सत्यं किन्तु कथं सूत्रतः कथम् उच्यते इट् इस् नाट् अपादान रैट् देर् इस् नो सेपरेशन् बिट्वीन् आसन्द एण्ड् द पर्सन् हु इस् सिट्टिङ्ग् आन् द आसन्द आसनात् प्रेक्ष्यते or prasada prekshate. So it is not apadana. If it is not apadana, you will not get panchami. How will you get panchami? Seeing from the very satyam, the two, that is all at the prayoga level, asana prekshate to satyam. Shastrataha katham tasu samarthanam kriyate. It is prasnaha, tadartham eva, I mean. Shastra need not be to tell something which we do not know or which is something new. Okay. Sam iti panchami iti satyam. That is a general definition. It is not Panini's definition or the Shastrakar. These are actually, the same logic should be used to English to say where do we use from. Kada from ityasya upayogaha bhavati angla bhashana iti kya yatra asti. Santi eta drishan, eta drishaha prayogaha satraiva bhavati. So English has not been analyzed in this way, so there are no rules. Okay. Karmani udaharanadvayam dattam. Ekam tu prasadat prekshate iti, aparam shashurat dishreti iti. Asanam prasadam arushya पश्यति इति अपि कर्मणः उदाहरणम् शशरं वीक्ष्य दिश्रयति इत्यपि कर्मणः उदाहरणम् आसने उपविश्य प्रेक्ष्यते इति अधिकरणस्य उदाहरणम् अग्रिमं वार्तिकमस्ति यतश्च अर्धकालनिमानं ततः पञ्चमी अध्वनः कालस्य च निमानम् अत्र विमानम् इति दोषेण लिखितमस्ति निमानम् निमानम् इस् अ मेजर्मेण्ट् परिच्छेद ओके अध्वनः अध्व इस् द मार्ग द पात् दट् इस् द लेन्थ् आफ् अ पात् काल इस् टैम् सो वेर् यु आर् मेजरिङ्ग् distance or time. Okay. Adva is always, I mean, even though it means marga, we always take it as distance. So when there is nimana, which is paricheda or yatta, this much of distance or this much of time, a measure of distance or time. Yena avadhina adhvanaha kalasyava nimanam. You measure time from a particular point or you measure distance from a particular point. Okay. For example, it is 5 kilometers from where? Okay. So, from is the avadhi. So, there is some point of reference from which you are measuring distance or time. Okay. So, yataha adhakala nimanam. So, that point from which you are measuring distance or time, tatah panchami. So, that point of reference will be panchami. So, this is again, in English, it is obvious. Most of panchami vibhakti is very obvious in prayoga. Because that from the sense of from is very strongly there in all prayogas. So it's a say 2 kilometers from my house. So from my house already there, but technically this is how it is defined. Yena avadhina, that reference from which there is nimana, which is measurement of distance or time, tataha panchami. So that point of reference will get panchami vibhakti. Mama grihat pancha kilometer dure asti. So like that. Now, that is the first vartika. There are two associated vartikas. Sadyuktad adhvanaha prathama saptamyau. The distance itself, you are saying the point of reference from which the distance is measured gets panchami. The distance itself, the word which indicates that distance, sadyuktad adhvanaha, adhvavachaka, margavachaka atpadat, prathama vibhaktihi bhavati, saptami vibhaktirapi bhavati. Prathama is natural. It is pratipadika arthe prathama, kintu saptami vibhaktihi api bhavati. Sadyuktad adhvanaha, prathama saptamyau. Example for this is this. Vanat gramaha yojanam yojaneva. Vanat gramaha. You are measuring a distance of the village from the forest. So the point of reference yataha adhva iniyate sadbhavati vanam. Ataha vanat iti panchami vibhakti. Vanat gramaha yojanam. It is at a distance of one yojana from the forest. Now yojana should naturally get prathama, but it can also get saptami vibhakti because of the second vartika. Sadyuktad adhvanaha prathama saptamyau ityanena vanad gramaha yojanam ityapi sadhu vanad gramaha yojane ityapi sadhu. Similarly, kalat saptami cha vaktavya. When you are measuring time, the word which indicates time, kalavachakat padat saptami vibhakti bhavati. Kartikyaha agrahayani maapre. Kartika is the Kartika masa. It's from where you are measuring time. 1 month, exactly 1 month after Kartika is agrahayani. Agrahayani is a day which is used in those days. It is used as the beginning of a year or something. It is used in many cases. Now that agrahayani will occur 1 month after Kartika. So Kartikyaha iti panchami vibhaktihi. Kimartham kena avadhina kalaha kalanimanam asti agrahaya masa avadhikaha kalaha iti kalanimanam kartikyaha arabhyate adaha kartikyaha iti panchami vibhaktihi mase kalavachakasya padasya kalat saptami cha vaktavya ityanena saptami vibhaktihi bhavati kartikyaha agrahayani mase. Okay, so there are a couple of questions. Apadanasvam dasana prekshate ityatra apadanasvam bhavati vah iti prashnaha. Katta saha iti prashnaha. Prasadat kashchana ikshate. So, in apadana always, you need to have a separation between the karta and the apadana. Whichever is the avadhi. As you say, vikshat paranam patati. So, that separation which is not there. So, he had to, it has to be vasanika. That's all. Yatashya adhvakala nimanam. Sakarasya marthaha iti. Atra sakarasya vishishta koke arthahanasti. So, Vartikakara in the flow, he is saying, he is giving a series of vartikas. He says what? Yavyope karman yadhikaranecha, yatashcha adhvakalanimanam, sarvatra chakaraha samuchayartha, sutrarthena saha. So he is joining these, his appendages to the sutra itself, so he uses chakara. There is no special, very special significance which is attached to chakara. Okay. And generally, chakaraha kimarthaha iti, sutra, we think, in many sutras we think why there is a sakara, why there is not. Vartike, katha, it is not as, vartikas are not as exactly phrased as sutra. In sutra, the phrasing is very, very exact. We see every letter or every mantra we look at it. वार्तिके तथा प्रायेण न भवति, वेरि फ्यू केसेस्। कालात् सप्तमी च इत्यत्र अन्याविभक्तिः न भवति, सप्तमी एव भवेत्। तद्यत्कानर्थनः प्रथमात् सप्तम्यौ वक्तव्यौ, कालात् सप्तमी च वक्तव्या। सो दे आर् ऐ मीन् यू शुड् आल्सो रिमेम्बर् दट् द फ्रेसिङ्ग् आफ् द वार्तिका इस् गिवन् इन् द कौमुदी इस् नाट् द एक्साक्ट् फ्रेसिङ्ग् आफ् द वार्तिककार हिम्सेल्फ्। ओके, इन् द भाष्य विल् यू सी द वार्तिका, द भाष्यकार विल् नाट् से कालात् सप्तमी च वक्तव्या। He might have said, Tadyuktad dhana prathama saptamyo, kalat saptamicha. That is probably how the Vartika is there in the Mahabhashya. Dikshita has changed the phrasing of Vartikas in many cases to make the meaning clear or to give a context or something. Okay. So, kalat saptamicha ityanena kim uchyate? What is the Vartika Kara saying? You should go by the Vartika list. As in, how the Vartika Kara's how is the Vartikakara's listing of it? So he says, Tadyuktanadhanaha prathama saptamyo, kala saptami cha. And sa kala vachaka, there is saptami. So it's only saptami and no other vibhakti. It has to be kartikyaha agrahayani maase. If it is artha vachaka, it can be either prathama or saptami. Okay. The question is, Tasmin Deva Agrahayani is a pamphlet from Damara, but I don't remember what is the exact context. It has something to do with the Kartika Masa. So, 1 month after. अग्रे पञ्चमी विभक्ति सम्बद्धानि कानिचन सूत्राणि सन्ति, अन्यारा वितरत्वे दिक्षुद्धान्त्युत्तरपद आगाहीयत्वे। प्रसिद्धाः प्रयोगाः सन्ति, एकमेव पदमस्ति सूत्रे, किन्तु तस्मिन् पदे समस्तं पदं बहूनि बहवः अवयवाः सन्ति। अन्य आरात् इतर ऋते इक्षब्द अन्त्योत्तरपद आच् आहि युक्ते पञ्चमी, अपादाने पञ्चमी इत्यतः पञ्चमी इति अनुवर्तते। एतैः योगे एतानि पदानि यानि सूत्रे निर्दिष्टानि तैः योगे पञ्चमी विभक्तिः भवति। डिरेक्ट् उपपदविभक्तिः, any of the words in mentioned in the sutra at present, the word associated with that will be in Panchami Vibhakti. The first word taken is Anya. Anya iti arthagrahanam iti uchyate. So always in sutra there is a question, is it only the word which is directly mentioned in the sutra which is to be taken, or can synonyms be taken? Why is this question? Because in Vyakarana, generally the rule is you take only that word which is mentioned. Svam rupam shabdasya ashabda samya. It is sutra meva asti. Aninya sutra yasatam. Svam rupam shabdasya. Yatra yatra kachana shabdaha nadishyate paninina. Tasya shabdasya eva grahanam bhavati natu tadarthasya. Udaharanartham agne dhak. Agni shabdasya evi dhak pratyaha vidhiyate. Agni shabdasya eva bhavati. Natu vanhi shabdasya nava anala shabdasya. Synonyms are not taken in Vyakarana, because Vyakarana is a shabda shastra. It deals directly with shabda, so the shabda which is mentioned will be taken. But there are obviously exceptions. There are cases where the artha, that is other words in the same meaning, can be taken. Especially in Karaka Prakarana it is there. There are some cases in which Panini himself says that artha. Dhitrarthanam dhaya hetuhu. So, bhayarthanam, pranarthanam, so it is tena eva uchyate. Svachitu yajyati nochyate, tathati prayoga vashata, athava vyakhyana pramanena svikriyate. Mate eva atra uchyate, anya iti arthagrahanam. Prayitam anya, we take the meaning of anya.
यानि यानि पदानि अन्यार्थानि सन्ति अन्य इत्यस्मिन् अर्थे अन्य मीन्स अदर समबडी एल्स तस्मिन् अर्थे यानि यानि पदानि सन्ति तैः योगे पञ्चमी विभक्तिः भवति इदानीं प्रश्नः तर्हि इतरशब्दः कुतः इन् द सूत्र इत्सेल्फ पाणिनि आल्सो मेन्शन् इतर अन्य इतर सिनोनिम्स दे बोथ मीन द सेम इफ यू टेक द सिनोनिम्स बाय अन्य वाई आर यू देयर इज नो नीड टू मेन्शन इतर ఇతర గ్రహణం ప్రపంచార్థం దిస్ ప్రపంచార్థ స్పష్టార్థ ఆర్ ఆల్ టర్మ్స్ యూజ్డ్ ఇన్ గ్రామర్ సంథింగ్ లైక్ ఎ హైపర్బోల్ బేసికలీ హీ షుడ్ నాట్ హ్యావ్ ఆర్ హీ నీడ్ నాట్ హ్యావ్ టేకన్ ద ఇతర గ్రహణం సో స్పష్టార్థం ఇది ఉచ్యతే మీన్స్ జస్ట్ ఫర్ క్లారిటీ ఇత్యుక్తే వస్తుతః నాపేక్షితం ఇత్యేవ అర్థః ప్రపంచార్థం ఇత్యుక్తే అపి వస్తుతః ఇతర గ్రహణం నాపేక్షితం ఇక్కడ జస్ట్ సెడ్ అన్య So all words which mean anya will be taken. Atayeva, anyaha, bhinnaha, itarova, krishnad. Krishnad anyaha, other than krishna. Krishnad bhinnaha, krishnad itaraha. Tadarthakanam, sarvesham padanam prayoge, ayam niyamaha, pravartate. Santani vibhakti bhavati, tena yoge. अग्रिमं पदमस्ति आराद् अन्याराद् इतरस्थे इत्यत्र आराद् आराद् इति अव्ययम् आराद् दूरसमीपयोः इत्यमरः इट् केन् मीन् इदर् फार् आर् नियर् बेस्ड् आन् द कान्टेक्स्ट् आराद् वनात् इत्यस्ति वनात् आराद् आराद् इस् अन् अव्यय तेन योगे पञ्चमी वनाद् आराद् इट् कुड् इदर् मीन् क्लोस् टु द फारेस्ट् आर् फार् अवे फ्रम् द फारेस्ट् based on the context. It is one of those confusing words where you cannot know, it is simply impossible to tell. Vanad arad is said, do you mean it is close or do you mean it is far? It is impossible to tell without the context. So, rute iti ekarantam avyayam. So the next anya arad itara is over. Rute again, it is not saptami vibhakti. It is an avyaya ekarantam avyayam. ऋते वर्जने ऋते मीन्स् विना इत्यर्थः विथौट् इत्यर्थे ऋते इत्यस्ति कृष्णाद् ऋते कृष्णपदात् पञ्चमी विभक्तिः भवति ऋते इत्यस्य योगे कृष्णाद् ऋते इत्युक्ते कृष्णं विना इत्यर्थः विथौट् कृष्ण अपरः इत्यस्य योगे अपि भवति अन्य इत्यस्मिन् अर्थे अपर इति पदमस्ति कृष्णादपरः तत्रापि पञ्चमीविभक्तिः भवति अन्यानि यानि यानि पदानि सन्ति तत्समानार्थकानि सर्वेषां भवति कथं ज्ञायते समानार्थकानां ग्रहणमस्ति इति टु प्रमाण प्रयोगशरणं व्याख्यानं शरणं देर् आर् टु थिङ्ग्स् विच् वैयाकरणं कन्सिडर् हैयर् देन् डिरेक्ट् सूत्र आर् वार्तिक One is prayoga. If there is shishta prayoga, you have to accept it. You have to substantiate it somehow. The second is vyakhyana. What the bhashyakara has said, mostly, and what a few other vyakhyakaras have said, that is also pramanam. What has it been interpreted as in the commentary? So using that, we say, prayoga asti, vyakhyana pramanam api asti ityataha. Atra, na kevalam anya padasya, kintu ta samanarthakanam api grahanam bhavati. कदाचित् ऋते इत्यस्य योगे द्वितीया विभक्तिः दृश्यते ऋते त्वाम् इट् इस् डिफिकल्ट् टु एक्चुलि सब्स्टेन्शियल् बिकास् इट् हेस् टु बि पञ्चमी कदाचित् विना इत्यस्य योगे भवति द्वितीया भवति तृतीया भवति पञ्चमी भवति सो मे बि इट् हेस् टु बि सब्स्टेन्शियेटेड् तत्रापि अर्थग्रहणेन तत्तु द्रष्टव्यम् हौ टु सब्स्टेन्शियेट् द्वितीया विभक्ति वित् ऋते ऐ डु नाट् नो The only possibility is since Vina has
ఆల్ దీస్ తదర్థతః ఇతి కృత్వా భవితుం అర్హతి తద్ద్రష్టవ్యం దృష్ట్వా. ప్రయోగ జ్ఞాయతే కథం ఇది ద్రష్టవ్యం. అన్య ఆరాద్ ఇతర ఋతే దిక్షబ్దస్తి దిక్షబ్ద నామక దీయతే దిశిదృష్ట శబ్ద దిక్షబ్ద. A word which can indicate direction. Dikshabda, the direct meaning is Dikvachakaha Shabdaha, that which indicates direction. Purvaha Gramat, to the east of the village. Ityasya. Kintuka, Chintana Vaishishya Uchyate Dikshitai Hyatra, Dishi Drishtaha Shabdaha Dikshabdaha. Directly when you hear the word, what do you feel? Dikshabdaha iti ukte. Kim bhasate iti chete Dikvachakaha Shabdaha. That word which indicates direction. But Vigvatakaha Shabdaha iti nochakyatra Dishi Drishtaha Shabdaha. A word which is seen in the sense of direction. Arthat Vigvatake arthe athava Disham arthe tasya shabdasya prayogaha asti. Into anyeshvake arthe shu tasya padasya prayogaha bhavitum arthati. An example is Purva. Purva is a Dik Shabda. That is, it can indicate the eastern direction. But it can also indicate something which is earlier, something which is before. Anyete arthaha santi. Ateva uchyate dishi drishtaha shabdaha dikshabdaha. So as long as it can be used for direction, it will be called a dikshabda. Tena samprati deshakala vrittina yogepi bhavati. Currently, even if it indicates something else, it might not indicate a direction now. It might indicate desha, that is earlier, it comes before. Ramas Purvaha may also mean before that village. Kala, again, Chaitras Purvaha Kalgunaha. Kalguna Masa comes before Chaitra Masa. There also the Purva is a Kalavati. It does not indicate direction. Okay? But still it is considered as a Dikshabda. As long as it is Dishi Drishtaha, Jigvata Katvena Tasya Prayogaha Kachidasthi Chedapi Saha Dikshabda Eva Samprati. ప్రయోగ ఇన్ ద కరెంట్ కాంటెక్స్ట్ ఈవెన్ దో ఇట్ మైట్ నాట్ మీన్ డైరెక్షన్ తి ఇఫ్ దట్ వర్డ్ క్యాన్ బి యూస్డ్ యాజ్ యూస్ టు ఇండికేట్ డైరెక్షన్ సహ దిక్షబ్ద తేన యోగే పంచమీ విభక్తి పూర్వో గ్రామాత్ చైత్రాత్ పూర్వ ఫాల్గొన ఫాల్గొన మాస కమ్స్ బిఫోర్ చైత్ర మాస అవయవవాచి యోగే తు బట్ అవయవ వాచి యోగే వెన్ సచ్ వర్డ్ ఇండికేట్ అవయవ అ పార్ట్ పూర్వ కెన్ ఆల్సో ఇండికేట్ ద ఎర్లియర్ పార్ట్ పర కెన్ ఇండికేట్ ద లాటర్ పార్ట్ ఇన్ వన్ థింగ్ ఇట్సెల్ఫ్ ఇన్ వన్ హోల్ థింగ్ ఇట్ మే ఇండికేట్ ద ఫస్ట్ పార్ట్ ఆర్ ద సెకండ్ పార్ట్ తదా తు పంచమీ విభక్తి నభవతి ఇన్ సచ్ కేస్ ఇట్ విల్ నాట్ బి పంచమీ ఇట్ విల్ బి షష్ఠీ విభక్తి బికాస్ అవయవ అవయవి సంబంధ విల్ ఆల్వేస్ హ్యావ్ షష్ఠీ విభక్తి. Avayava is an organ and avayavi is an organism. So, my head, shiraha, mama shiraha, shiraha avayavaha, aham avayavi. Always the avayava and avayavi will have this shashti. It is sambandha. Avayava avayavi bhava sambandha. So, in such case, it will not be panchami, it will be shashti. So, how do you know it will be shashti? It is yet, tasya param amvedikam. Iti sutram asti. సస్య పరం ఆమ్రేడితం ద్విరుక్తస్య పరం. సో వెన్ దర్ ఇస్ ద్విత్వ ద సెకండ్ హాఫ్ ఆఫ్ ఇట్ ఇస్ కాల్డ్ ఆమ్రేడిత ఇస్ వాట్ హి సేస్. సో దేర్ హి సేస్ సస్య పరం ద లాటర్ హాఫ్ ఆఫ్ ఇట్ ఇది షష్ఠీ విభక్తే ప్రయోగ కృత పాణినినా. సత్య పరం తస్మాత్ పరం ఇది పంచమీ నాస్తి సత్య పరం ఇత్యస్తి. అతః అవయవవాచి యోగే వెన్ ఇట్ ఇండికేట్ అవయవ అవయవి పంచమీ విభక్తి న భవతి దిక్షబ్దస్యాపి. పూర్వ పరం ఆల్ దీస్ ఆర్ దిక్షబ్ద. పూర్వం కాయస్య కాయస్య పూర్వం ద ఫస్ట్ హాఫ్ ఆఫ్ ద బాడీ ఎక్సెప్ట్ పూర్వం కాయాత్ ఇది నభవతి. పూర్వం కాయస్య అవయవి అవయవ వాచకత్వం యదా అస్తి దిక్షబ్దస్య తదా షష్ఠీ విభక్తి అన్యేషు అర్థేషు పంచమీ విభక్తి. అన్యారాదితరే దిక్షబ్ద అంచూత్తర పద అంచు గతి పూజనయోహు ఇది ధాతు. ఇట్ ఇస్ అ ధాతు Anchu Uttara Pada indicates those words which have this Anchu Dhatu as in their Uttara Pada. There are samasas. They are very famous. Prati, Pratichi, etc. are words. And they are derived. The Prakriya is somewhat special. You have Prati is derived from Prak Anchati. Okay, so it is, there is Anchu Dhatu which is there as the Uttara Pada. Evam Pratichi, iti ityadini padani santi. Yatra Anchu iti Dhatuhu Uttara Pada asti. So Anchu Uttara Pada. Those words which have Anchu as the Uttara Pada, in their association also there is Panchami. Now the question arises, Anchu Uttara Padani yani santi. Tani Sarvani Digvachakaneva. They are all again indicating direction. Prati is the east. Pratisi is the west. So all those words which have Anchu as their Uttara Pada are Digvachakas. Tadhi Kimartham Dikshabda Ityanenaiva Siddhati. Kimartham Anchu Uttara Pada iti Prithagrahanam. Iti Prashna. Why do you tell it again? Dikshabda Ityanenaiva Siddhati iti Chetar. Anchu Uttara Padasyatu Dikshabda Tveti. Shashthita-tattha-pratyayana iti shashthiyam vadhikam prithagrahanam. Agre sutram asti, shashthiyavati-vidhayakam sutram, shashthita-tattha-pratyayana. Atasartha-pratyayana yoge. There are certain pratyayas which are clubbed as atasartha. Saihi pratyayasi yoge, shashthiyavati-vidhayakam iti agre uchyate. Now this prati-pratisi, wherever there is anchyutara-pada, there are also atasartha-pratyayas. There is a fifth or clean or some pratyaya which is also atasartha. So in the absence of Anchu Uttara Pada here, if Panini had not specifically mentioned Anchu Uttara Pada, Kevalam Dikshabda Ajyase Grahane Sati, there would have been a clash. Should there be Panchami due to Anyaraditarapte, or should there be Shashti due to Shashtata Sattaprattayena? Paratva Shashti Vibhakti Bhavatisma. Sanyamalanatram Vishishya Uchyate. So specifically Panini mentioned Anchu Uttara Pada. So, because of the specific mention, it means there will be Panchami and not Shashti. Anchuttara Padasyatu Dikshabdatveti Shashtata Sattapratyayena Iti Shashtim Vajitum Prathagrahanam. So, again it has been mentioned separately to make sure that it will overrule the Shashti and there will be Panchami in association with these words. Prak Pratyagva Gramat. Gramat Prak. Again, Prak, it means eastern direction. It also can mean before. Ubhayathapi asti yatha puro padasya. Ubhayathapi asthaha evam tasyapi. Pratyata is again either to the west or afterwards. Vanyarad itarate rikshabda anchi uttarapada. Aaj ahi yukte. Aaj ahi iti Pratyayadvayam, there are two Tadhita Pratyayaha, Digvachakabhyah Vidiyante. They are again mandated on Digvachaka Shabdas. Aach Dakshina Gramat. Dakshina is an Ajanta. The Pratyaya there, the Akara you hear is because of the Aach. Gramat Dakshina Ityarthe. Aach Pratyayantasya. Gramavadhikayam Dakshinasyam Dishi Ityarthaha. Again, Ahi, Dakshinahi, Gramat, it is written, Ahi, Pratyaha, so Ahi Chadure, Chalena, Pratyaha Vidhiyate, this is an Avyaya, Dakshinahi is an Avyaya, Kortaha, Gramavatikayam, Dakshinasyam, Dishi, Dure, towards the south and far away, it's written, Dakshinahi, it is written. Again, Ajahi Pratyayam Tayohu, Dikshabda Sveti, both of these are Dikshabda, because the Pratyayas themselves are mandated only for Digvachakas. Dikshabda Tveti, Shashtata Sattapratyayena Iti Shashtim Vajitum Prathangrahanam. Like Anchu Uttara Pada, they would also get Shashti from Shashtata Sattapratyayena. So to prevent that Shashti, you are using, mentioning them separately. Panini has mentioned them separately in the Sutra. Anyara Vitarate Dikshabda Anchu Uttara Pada Ajahi Yukte. Gramat Prachi Ityavi Havitum Anhati. Prach and Prachi. There is a Chakaranta word which is Prach. Again it gets Sri Pratyaya, it becomes Prachi. There are two separate words. Prach Pranchau Pranchaha Iti Havati. prati istiti asti. So you can use both. There are a few other words where you have Panchami Vibhakti, but there are no sutras or vatikas to substantiate it. Panchami Vibhakti hai prayogaha drishyate, kintu tadvibhayakam shastram nasti. Prabhuti ityasti, starting from ityarthe, or beginning with ityarthe. Satra sadhyoga Panchami Vibhakti hi drishyate prayogeshu. Tasmat prabhuti, from then or from there ityarthe. कथम तत्र पंचमी विभक्ति इति प्रश्नः. अपादाने पंचमी इति सूत्रे कार्तिक्याः प्रभृति इति भाष्य प्रयोगात् भाष्यकारस्य प्रयोगः अस्ति. As I said, there are some things which we treat as pramana, other than a direct sutra or a vartika. So one of those is shishta prayoga. So the bhashyakara himself has used the prayoga saying kartikyaha prabhati. Panchami vibhakteh prayogah krutah prabhati shabdena yoge. अतः प्रभृत्यर्थ योगे पंचमी. प्रभृति इत्यर्थे ये शब्दाः सन्ति तद्योगे पंचमी विभक्ति भवति. भवात् प्रभृति सेव्यो हरिः. हरि शुड बी वर्शिप्ड स्टार्टिंग राइट फ्रॉम बर्थ. एवं भवाद् आरभ्य. आरभ्य इत्यपि तस्मिन् एव अर्थे स्टार्टिंग फ्रॉम इत्यर्थे. भवाद् आरभ्य सेव्यो हरिः. ही शुड बी वर्शिप्ड राइट फ्रॉम बर्थ इत्यर्थे. सूत्रम नास्ति विधायकम सूत्रम वा वार्तिकम वा नास्ति प्रयोगात् साध्यते. सिंस वी हैव प्रयोगान् भाष्य प्रयोग वी से इट इज करेक्ट. अगेन अ वेरी फेमस एग्जांपल बहिः. ग्रामाद् बहिः कथम बहिर्योगे पंचमी इति सूत्रम नास्ति. देयर इज नो सूत्र विच सेज देयर शुड बी पंचमी विभक्ति व्हेन देयर इज बहिः. बट पाणिनि हैज अ सूत्र इन समासास. अपापरि बहिरन्तवः पञ्चम्या इति समासः विधीयते. ही सेज अपापरि बहिः एंड अंशु. द अंशु इज रिफर्ड जस्ट नाउ. पञ्चम्यन्तेन समस्यन्ते. सो दे आर व्हाट सॉरी दे गेट अ समास विथ अ पञ्चम्यन्त. पञ्चम्यन्तेन सह समस्यन्ते इति उच्यते. पंचम्यंतत्वं कथम. हाउ डू यू हैव अ पंचम्यंत इन एसोसिएशन विद बहिः इज अ क्वेश्चन विच इज अराइज. सो सिंस पाणिनि हैज इंडिकेटेड समास सेइंग बहि विल द वर्ड बहि द अव्यया बहिः विल गेट अ समास विद पंचमी विच मीन्स दैट पंचमी विभक्ति विल बी यूज व्हेन देयर इज बहिः. सो ज्ञापकात् दिस इज वेयर व्हाट वी कॉल अ ज्ञापक इज दैट वी इनडायरेक्टली derive something, even though it has not been directly told by the sutrakara, we indirectly derive some rules. Okay. So because of this, since Panini has said samasa, there should be a prayoga of panchamyanta in association with bahihi. So which means Panini implies the rule is bahiryoge panchami. When there is the word bahihi, the associated word will be in panchami. Ramat bahihi. Iti pancham prajami bhakti bhavati. I think we'll stop here. Next we have again Upapada Vibhakto Karma Pravachaniyaha. If you remember Dvitiya Vibhakto Asan, we saw many Karma Pravachaniyas in Dvitiya Vibhakti. Karma Pravachaniya is said Dvitiya Ityapi Asi. There are a few Karma Pravachaniyas where you have Panchami Vibhakti and not Dvitiya. Okay. So those will be dealt with later. You'll see those in the next class. एनाक्षरसमाम नायम अधिगम्य महेश्वरात् कृष्णम् व्याकरणम् प्रोक्तम् तस्मै पाणिनये नमः. भाष्यकारम् वररुचिम् भाष्यकारम् पतञ्जलिम् पाणिनिम् सूत्रकारम् च प्रणतोऽस्मि मुनित्रयम्. मुनित्रयम् नमस्कृत्य तदुक्तीश्वरि भाव्य च वैयाकरणसिद्धान्तकौमुदीयम् विरच्यते.